राम राम राम। यावत् सर्वे आगच्छन्ति तावत् ध्यानश्लोकान् वदामः। गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोः, मतिरस्ति गुरौ मम पाहि गुरो। गुरुमेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। पार्थाय प्रतिभां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना, मध्ये महाभारतम् अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीं। नमोऽस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायतपत्रनेत्र, येन त्वया तैलपूर्णः प्रज्वालितो ज्ञानमयप्रदीपः। वसुदेवसुतं देवं कंसचाणूरमर्दनं देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुं। मूकं करोति वाचलं पङ्गुं लङ्घयति गिरिं, यत्कृपातमहं वन्दे परमानन्दमाधवम्। धृतराष्ट्र उवाच, धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुयुत्सवः, मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय। गुरुं गणपतिम् आचार्यान् पितृन् सर्वान् नत्वा अद्यतनकक्ष्यां प्रारम्भं कुर्मः। इदानीम् अर्जुनविषादयोगे वयं स्मः। अर्जुनस्य विषादकारणानि अस्माभिः दृष्टानि सन्ति। सः कृपया परया आविष्टः भूत्वा विषादः भवति, दुःखितो भवति, अनन्तरं युद्धं न कुर्याम् इति सः निश्चयं करोति। तत्र विषादकारणानि सः सर्वं वदति। प्रथमतया राज्यं सुखानि सर्वं न काङ्क्ष्ये, तेन किमपि अस्माकं प्रयोजनं न भवति। सर्वे सम्बन्धिनः यैः साकम् अहं राज्यम् अनुभवामि ते सर्वे अपि अत्र सन्ति। त्रिलोकराज्यं दत्ते अपि अहं युद्धं न करोमि। यदि एते मां मारयन्ति तदापि अहं युद्धं न करोमि। एतान् निहत्य मम किमपि प्रयोजनं न भवति, कापि प्रीतिः न भवति। तर्हि किमर्थम् एतान् आततायिन् ये सन्ति तान् हत्वा मम केवलं तत्र पापः भवति, अघं भवति इति सः वदति। अनन्तरम् अपि च वयम् अस्माकं बान्धवान् बन्धुजनान् मित्रबन्धुजनान् सर्वान् हननं कर्तुं नार्हाः। एतेन उभयदोषं भवति, एकं तावत् कुलक्षयकृतं दोषं भवति, अन्यच्च मित्रद्रोहपातकमपि भवति। ये ये मित्राणि सन्ति, ये ये अस्माकं कृते अस्माकं जीवने सत्कृताः, सुहृद्रूपेण ये ये अस्माकं सहायकृताः सन्ति, मित्राणि ये ये सन्ति, तेषां द्रोहं तु अतीव महत् पापं भवति। मित्रद्रोहम् अतीव महत्तरपापम्, अपि च कुलक्षयकृतं दोषं तत्र उभावपि भवति। तेन अस्माकं नाशः भवति। एते जनाः कौरवाः लोभोपहत चेतसा तत्सर्वं न पश्यन्ति, परम् अस्माभिः द्रष्टुं शक्यते किल। तर्हि अस्माभिः एव निवारणोपायं द्रष्टव्यम् इति सः वदति. तदनन्तरं यदि कुलक्षये भवति चेत्, कुलक्षयं भवति चेत् तर्हि सनातनाः कुलधर्माः नश्यन्ति, अपि च यदा धर्मं नष्टं भवति तदा कृत्स्नं कुलमपि अधर्मः आवरणं करोति, अधर्मः पूर्णतया, अनाचारः पूर्णतया कुलम् आक्राम्यति. अनन्तरम् अधर्मस्य अभिभवात्, अधर्मस्य आक्रमणात् किं भवति इत्युक्ते कुलस्त्रियः प्रदुष्यन्ति, कुलस्त्रियः प्रदुष्यन्ति. अनन्तरं यदा स्त्रियः दुष्टाः भविष्यन्ति तदा एव वर्णसङ्करः जायते इति अस्मात्र दृष्टमस्ति. गतकक्षायाम् एतत् सर्वं दृष्टमस्ति. हे कृष्ण, अधर्मस्याभिभवात् कुलस्त्रियः ये ये साध्व्यः सन्ति ते सर्वे प्रदुष्यन्ति. अस्माभिः तत्र दृष्टमस्ति प्रदुष्यन्ति इति पदं सम्यक् वयं पश्यामश्चेत् दुषवैकृत्ये इति धातोः निष्पन्नः प्रदुष्यन्ति इति शब्दः इति क्रियापदम्. वैकृत्यं, तत्र वैकृत्यम् इत्युक्ते प्रकृतिरीत्या विरुद्धं यद्यत् सर्वमस्ति तत्सर्वं वैकृत्यम् इति भवति. एवं कुलस्त्रियः प्रदुष्यन्ति, ते तत्र वैकृतिम् आप्नुवन्ति, ते व्यभिचरन्ति इति तत्र अर्थः. ये ये साध्व्यः सन्ति कुलस्त्रियः, ये धर्मं सर्वदा पालयन्ति, अन्यान् सर्वान् पालयितुं प्रेरयन्ति, ते सर्वे प्रदुष्यन्ति. तत्र यदा तत्र जनाः न भवन्ति, यदा एकस्मिन् कुले तत्र जनाः तत्र न भवन्ति चेत् ते अन्यकुलादेव तत्र जनान् स्वीकृत्य तत्र विवाहादिसंस्कारं कुर्वन्ति. एतेन तत्र सर्वत्र प्रदूषणं भवति, तत्र मालिन्यं भवति, तत्र प्रदूषणं भवति. एतेन तेन वर्णसङ्करः जायते, तत्र वर्णाः सन्ति. तत्र अस्माभिः दृष्टमस्ति चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः. तत्र देर् आर् लाट् आफ् डिस्कशन्स् विच् कीप् हेपनिङ्ग् अबौट् द कास्ट् सिस्टम् एण्ड् वेदर् इट् इस् गुड् आर् बेड्. परम् इफ् यु सी द ओरिजिनल् इण्टेन्शन् अतीव सरलमासीत्, तत्तु चातुर्वर्ण्यं, तत्र चतुर्वर्णाः मया सृष्टं गुणकर्मविभागशः. तत्र वाट् एवर् क्वालिटीस् दे हेड् पीपल् हेड् एण्ड् वाट् एवर् कर्म, वाट् एवर् केपबिलिटीस् दे हेड् टु डू आक्टिविटीस् बेस्ड् आन् दट् दे वेर् अलोकेटेड् टु द रेस्पेक्ट् वर्ण वेर् इन् द ब्राह्मण क्षत्रिय वैश्य शूद्र. इफ् यु सी, तत्रापि यदि वेदे पश्यामश्चेत् लाट् आफ् अस् वुड् नो द पुरुष सूक्त विच् इस् द वन् आफ् द ग्रेटेस्ट् सूक्त विच् टाक्स् अबौट् द परमात्म पुरुष. देर् तत्र द ओरिजिनेटिङ्ग् पायिण्ट् आफ् आल् द फोर् वर्णास् इस् सेम्. तत्र इफ् यु सी द देशे ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यस्मृतः ऊरु तदस्य द्वैष्यः पद्भ्यागुं शूद्रो जायत. इफ् यु सी द विराट् पुरुष विच् इस् बीङ्ग् स्पोकन् अबौट् इन् द पुरुष सूक्तम्, ब्राह्मण हेस् टु डू मोर् आफ् थिङ्किङ्ग् वर्क् विच् इस् वै ब्राह्मणः अस्य विराट् पुरुषस्य मुखम् आसीत् इस् देर्. सो हि हेस् टु डू लाट् आफ़् थिङ्किङ्ग्, हि हेस् टु रिमेम्बर् द वेस्, हि हेस् टु मेमरैज़् इट् एण्ड् हि हेस् टु अण्डर्स्टाण्ड् देम् एण्ड् टीच् अदर्स्. एवं तत्र साधारण यदि वयं पश्यामश्चेत् मेन्लि देर् आर् मोर् तत्र मुखबुद्धि उपयोगद्वारा थ्रू रिमेम्बरिङ्ग् देम् एण्ड् थ्रू उच्चारणादि रीत्या he is responsible for that activities. evam saha brahmanah mukham abhavat, mukham tadrsha karyani saha swikrutavan tavadeva. uru tadasya dvaishyah, vaishya janah ye vyaparam kurvanti te sarvada tatra brahmanosya mukhamasit bahu rajanya smritah, bahu rajanyah tatra ye ye rajanah kshatriyah santi te sarve virat purushasya bahu rupena tatra abhavan. बाहु इत्युक्ते तत्र क्षत्रियाणां बाहुबलमेव महद्बलं भवति. द क्षत्रिया शुड् आल्वेस् बी वेरि वेरि स्ट्राङ्ग् इन् देर् फिजिकल् स्ट्रेङ्थ्. दे शुड् हाव् गुड् शोल्डर्स् एण्ड् दे शुड् बि एबल् टु फ fight well, which is why Virat Purushasya Eka Eva Pita Tatra Tasya Chatvaraha Putraha Santi Prathamastavat Yadivayam Svikurmaha Saha Mukhat Nisritaha Dutiyastavat Yadivayam Svikurmaha Saha Bahoho Tatra Janitaha Anantram Trutrasya Dvaishyaha Tatra Gamagamanam Itastataha Sancharanam Tatra Vyapare Sarvatra Sancharanam Bhavati Evam Rut Estarasya Tadvaishyaha Tatra Sancharanadi Tatra Karya Ritya Vaishyaha Bhavanyan Padvyagam Shudro Ajayata Virat Purushasya Ativa Utta Angam Yadi Vayam Svikurmascheta Tadeva Padaha The feet, lotus feet of the god is being taken as the Shudra. Again, Shudra means Shuchim Dravayanti Iti Shudraha. Those people who are the responsible for the cleanliness of everybody and also who are supposed to be the helping to maintain that cleanliness which is next to godliness. Evam Ritya Nakimapi Tatra Adho it is not, nothing is lower cadre, nothing is higher cadre if we take that. Evam, that is what is being discussed later on, we will even see that. Guna Karma Vibhaga Eva Vibhagaha Natu Anya Bhedaha Nasanti Evam Sarve Eka Pituhu Eva Tatra Putraha Evam Santi. Now, Yadi Vayam Pashyamascheta Idanim Chatur Varnaha Santi Chatur Varnaha Santi Tesham Tesham Swasva Swadharma Karyani Santi Yadi Janaha Ekasmin Varne Nabhavanti Chete Tada Kim Bhavati Varna Sankaryam Bhavati. If Arjuna is going to kill the entire Kshatriya Kula here, then there will be no Kshatriyas to protect anybody. Then the Kshatriya Striyaha Yeye Santi, the Kshatriya Stries who are there, they will be forced to marry either the Brahmanas or the Vaishyas or the other Varnas. And therefore Varna Sankaryam will be there. And the people who are resulting out of these will be in a doubt as to what kind of Swadharma they should be following, because of which lot of confusion and chaos will be starting. This kind of thing we have already seen that the start of this happened during the Dwapara Yuga's end, wherein already here if we see, we are seeing that Dhritarashtra, who is not so Kshatriya prone, he is being made as a king. Dronadayaha yeye brahmanaha dronakripacharyadayaha te dvijottamaha yadyapi te dvijottamaha tathapi they have come to fight for the sake of their king. Already we are seeing the start of Varna Sankarya, which has already happened in the Dwapara Yuga, which is only going to be increased in Kali Yuga. And once Varna Sankaryam starts off and it is happening, it takes the entire Pralaya to finish and then cleanse it up and then again start off. Evam Bhashyakara, these are the various commentaries which have been given by the Bhashyakaras and the effect of Varna Sankara. So, which is why Arjuna is very much fearing that these things will be happening. Evam Eva. All the reasons or the fear of Arjuna, if we see, are very, very valid and are very logical points only. But then we later on, as we go ahead, we also see that what is the context in which these things should be seen and how the doubts of Arjuna are being removed. That we can see from the start of second chapter. Evam Arjuna vadati he varshneya yadi striyaha tatra dushtaha bhavanti tarhi varna sankaraha sankaraha ityukte mishranam varna mishranam jayate varna sankaraha again for the people who do examinations varna sankara is an important point for short notes evam varna sankaraha so we saw what are the four varnas and how the varna sankarya happens what is the reason for varna sankarya and then how katham varna sankaryena tatra ativa mahat samajika tatra badha bhavishyati iti. We have seen that what will be the great social affliction which will happen because of varna sankaryam and how people will not be able to know the clear responsibilities and there will be lot of chaos in the society, which is why they were very, very consciously trying to keep it together. But as we saw, it was varna sankarya had already started during that time because of various reasons is what we are seeing. Adharma vibhavaha varna sankaryaha. We just saw the vyakarna bhaga. Varshneyaha vrishnehe gotra patyampuman varshneyaha. We saw the gaze taddhitanta bhaga also. Evam tatra गतकक्षायाः नोट्स् एव एतत्, तत् अद्य प्रेसेण्टेशन् रीत्या नास्ति, तत् वयं वि विल् टेक् द नोट्स् फार् द श्लोक आफ्टर् टु वि विल् टेक् द नोट्स् पार्ट् अण्ड् ट्रै टु यूस् इट्. इदानीं श्लोक नम्बर् 42 पश्यामः. तत्र सम्यक् दृश्यते वा? श्लोक नम्बर् 42 स्वीकुर्मः. प्रथमं तावत् वदामि, सर्वे अनुवदन्तु. संकरो नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरो ह्येषाम् लुप्तपिण्डोदकक्रियाः. श्लोकं द्विवारं तत्र पठन्तु. संकरो नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः. श्लोकं पठन्तु. प्रतिनित्यमपि यावत् तत्र भवति तत्र श्लोकान् पौनःपुन्येन पठन्तु. तत्र नूतननूतन अर्थावगमनं भवति. लैक् वि सा इन् वन् आफ् द इण्ट्रोडक्षन् क्लासस् लाट् आफ् ग्रेट् पीपल् इन्क्लूडिङ्ग् महात्मा गान्धी अण्ड् अदर् पीपल् सीन् वेर् इन् प्रतिनित्यं केवलं गीताध्ययनेन दे हेव् हेड् इमेन्स् बेनिफिट् बै रीडिङ्ग् द श्लोकास् अगेन् अण्ड् अगेन् बै कन्सिडरिङ्ग् दि मीनिङ्ग् new thoughts, new explanations, we do get such experiences, and which will also make us lot of concepts clear. Sometimes we may get some doubts which may not be very very apt to the situation also, then we can always refer the bhashyas and clear ourselves. So try to keep reading the shlokas as much as possible, it is always of immense benefit for us. Idanim shloka, oh okay, प्रेसेण्टेशन् या अद्य प्रेसेण्टेशन् नास्ति. तत्र किञ्चित् विलम्बेन आगतवान् श्वः रात्रौ कार्यात्, तदनन्तरं तत् कर्तुम् अशक्नुवम्. परं तत्र ऐ हव् ट्रैड् टु लोड् द पी डि एफ् इट् सेल्फ्. इस् दट् विजिबल्? द नोट्स् इट् सेल्फ् ऐ हव् ट्रैड् टु लोड् आन् टु द स्क्रीन्. एवं तत्र तत्र पदच्छेदः संकरः नरकाय एव भवति. संकरः नरकाय एव कुलघ्नानां च पतन्ति पितरः हि येषां लुप्तपिण्डोदकक्रियाः. एवं तत्र पश्यामः, तत्र कर्तृकर्मक्रिया सरलमस्ति. संकरः नरकाय भवति, समीचीनम्. पतन्ति, समीचीनम्. के पतन्ति? पितरः पतन्ति, समीचीनम्. प्रथमं वाक्यं तावत् संकरः नरकाय भवति. कस्य के कृते नरकाय भवति तत् पश्यामः. द्वितीयं वाक्यं तावत् पितरः पतन्ति. कीदृशाः पितरः? किमर्थं पितरः पतन्ति एव पश्यामः. प्रथमं वाक्यं, लैक् वि सेड् द फस्ट् वाक्य, संकरः. आल्वेस् रिमेम्बर् दिस् इस् नाट् शङ्करः, दिस् इस् संकरः. स sankaraha, we have seen sankaraha, tatra sankaryam, mishranam, the mixture of varnashrama sankaryam yatvayam, tatra uktavantaha, chaturvarnaha, tatra swasva varnamadhye yada samskara vivahari samskaraha bhavanti, jananam melanam bhavati, tada swadharma syacharane, tatra samshayova, lopa doshova, nabhavati, param yada varna sankaryam bhavati, varna mishram bhavati, tada swadharma charane, doshaha, sandehaha, tatra anya nutana swadharmaha, nutana kriya karmaha, bhavanti, karmani bhavanti, ityarthameva sankaraha narakaya iti bhavanti. Evam, so the word is sankara and not shankara. Let us be conscious of that. Sometimes some of the students we have heard reading it as shankaraha narakaya bhavati param. That will be very very against the principles. Evam sankaraha tatra vayivayam pashyamasete kulagnanam sankaraha kulasya narakaya eva bhavati. Evam prathamam vakyam tavat sankaraha mishranam, the mixture of clans, whatever we spoke about, tatra chaturvarnaha yate vayam tatra purva bhage tatra drishtavantaha tesham varnanam sankaryam tatra kulasya narakaya bhavati natu ekasya purushasya param sva kulasya iva. Most of the dharmakaryas which we have always seen always affect the individual also, and it always affects the kula of the person also, which is why we have seen in tatra yadi vayam pashyamaschetam ye sajjanaha santi tesham kulasya uddharanam bhavati sarvada anyacha yadi vayam samskaradin pashyamaschet kanyadana samskaram yadi vayam pashyamaschet tatra asm ekavibhshati kulodharanaya aham kanyadanam karishetyeva sankalpaha. So when a kanyadana happens, then the 21 kulas of the people, of that person who is doing that kanyadana, the 21 generations are kula uddharana happens of them. They get their liberation. They get the uddhara is what is being told. Evam, while good activities, good deeds always do good to the entire clan of generations, our ancestors and our succeeding people, all our sons, grandsons and all these people, the reverse of it is also true. Yadi vayam tatra shiva puja mahatmyam pashyamaschete shiva pujayam janaha vadanti ekam cha bilvam salilam cha kinchite samarpitam shankara murdni bhaktya amantrakam vapi samantrakam va sa vamshakotya shivalokameti. So therefore ekam cha bilvam, again if we are into the shiva puja, similar shlokas are there for all the shanmatas. So ekam cha bilvam, bilva leaf, and salilam cha kinchit, a little bit of drop of water, samarpitam shankara murdni bhaktya, with devotion if we put one leaf of bilva leaf and one drop of water on the shiva murdhna shiva shiras, then what happens? That too, amantrakam va api samantrakam va, with mantra or without mantra, sa vamshakotya shivalokameti, by their entire clans, all their entire clan, they all go into, they get into, okay, mixastiva, okay, kinchit mandena uchyate chet, tat samyak bhavativa, okay, bhavatu. Evam pashyamaschete, okay. Tatra sa vamshakotya shivalokameti. Evam tatra uktamasti. Any of the saddharma vaidivayam kurmaschete asmakam kulakshemaya bhavati. Always, any good things we do will be beneficial to some extent to us, but it will be very very beneficial to our sons and grandsons. Similarly, yadivayam kulakshayadi mitradrohadi patakam kurmaschete, if you are doing any of the not so good deeds, some of the any papakaryani, dushtakaryani, if you are going to hurt other people and do any of the papakaryas, then we have seen very very pratyaksharitya, we would have seen lot of people having difficult santati, lot of people having lot of other problems in the kula. Evam kulasya narakameva bhavati, evam kulaghnanam. People who destroy kulas, ye kulam hanti te kulaghnaha. Kulam ye janaha hanti te kulaghnaha. Kulaghnanam tatra ye janaha santi kulaghnaha santi kulaghnanam krite tatra sankaraha narakaya eva bhavati. Kulasya sankaraha apicha kulaghnanam tatra sankaraha narakaya eva bhavati. By doing these things, it is always that naraka only is the result which can happen for them. Again, tatra yadi vayam bhagavata, devi bhagavata, krishna tatra bhagavata, mahatme pashyamas chete, we have lot of puranas, including the Garuda Purana also, which explains naraka. The again, the objective being very clear, that a person, it is always a cycle, yadi yakkopi purushaha, anya purushebhyah saha tatra droham karoti va dushtaritya dushta svabhavaritya saha anuvartanam karoti tarhi yetasyapi krite tatra naraka yatana eva bhavati, yatana eva bhavati, kleshah eva bhavati ityeva tatra arthah. Anyacha anyat kim bhavati, kulasyeva narakam bhavati. Anyacha ye ye pitarah santi te sarve lupta pindodaka kriyaha narake te patanti, te sarvada patanti, they fall down. Yadi vayam pashyamaschete, again very very logically Arjuna's reasoning and process skills, if we see, are very very strong. He tells, first vakya he tells, sankarah kulasya narakaya bhavati tatra. Yadi, if we see this sankha, it will spoil the future generations. All the future people who are going to be born will not have the same people in their own clan. Therefore, there will be a mixture of clans. Because of mixture of clans, then they will not know which dharma to follow. When there is a doubt on the dharma to follow, they follow either half of it or they start following new dharmas which cannot be stopped. And once they follow the new krityas, krita krityas, new dharmas, then there will be confusion and this will lead to utter chaos in the society. Evam tatra samajaritya tatra ativa mahate nashtaya bhavati tatra mahate durlabhaya bhavati iti sahavadati. This is the first these things. Then he goes one more step and says, it is not only about the future generations, all the pitaraha ye santi, all the ancestors who are there, they also who are there in the pitruloke ye santi. We had spoken about this. Three lokas, Vasuloka, Rudraloka, Adityaloka, in which the Pitrudevatas are staying in that Pitruloka. The Pitaraha who are there are always sitting there only mainly to bless us. The three generations, Pitru, Pitamaha, Prapitamaha, Matru, Pitamahi, Prapitamahi, these are the three generations what we generally see. They are in the Pitruloka, Vasu, Rudra, Adityalokaha, Te Santi. Yete Pitaraha, the pitaraha who are there, the ancestors, for them whatever the pinda which is there, the anna golakam yadasti, the odana golakam, what we give them, tatra pinda is the rice ball, what we give to them, with the udaka, with the water, the tilodakam, what we give them, that is the kriya karma, what we do them during the tarpanadikam, what we have seen, yetat sarvam luptaha bhavanti, they will not get the offerings. And when they become lupta pindodaka kriyaha, they fall from their rest lokas and they also go to the naraka only. Therefore, in the reasoning, again he very clearly tells, tatra all the future clans and all the previous ancestors who are there, both of them will fall into naraka. Yetadeva tasya vachanasya artaha. So, evam tatra padapadartham pashyamaha. We have tried seeing a little bit of the bhashyas and a little bit of commentaries what has been given. We have tried discussing that also. Padapadartham pashyamaha kulagnanam tatra vamsha nashakaha ye santi tenam mishranena mishranam yada bhavati tatra vamshasya narakalokaya eva bhavati narakalokam eva tatra parinamam bhavati iti sahavadati. Anantaram tavate yetat bhavijananam krite bhavishyajanaha the future generations who come, they will all have Varna Sankaryam, they will go to Naraka. The previous generations who have already gone, the ancestors, without any offering of rice ball and water, they will fall down. Once they fall down, they go to the Naraka and they will not be able to bless us. We saw in one of the previous classes, Katham, two people who are very, very important for the Kshema of the Manukula are the Kula Devata and the Pitru Devata. Many of the problems and troubles, if we see, are coming only because of either not respecting or not doing the proper Aradhana of either the Kula Devata or the Pitru Devata. Yevam, Tatra, Pitaraha, our ancestors and Kula Devata are always waiting to bless us. Even a little bit of activities or kriya karma towards them, which is why it gives us immense benefits. And all these are our swadharma, which we should be taking care of. Yevam pitaraha api yada patanti, when they fall from the pitraloka because they do not have the oblations, tatra yada tesham lupta tatra nashta pindodakam tatra odanam odana golakam yadasti anantaram tilodakam yadasti etat sarvam luptaha bhutva te api narake patanti, they also fall down from their pitrlokam. Yame bhoti tatra padaparichayam pashyamaha tatra vamsha nashakanam yadi vayam pashyamaschete tatra kulagnanam tatra akaranta pullinga shashti bhakti ekavachanam sankaraha prathama bhakti ekavachanam kulasya shashti ekavachanam narakaya chaturthi ekavachanam eva avyayam. Simple ones, easy ones, so we can go a little bit faster. Lupta pindodaka kriyaha bahuvachanam prathama anantaram tatra yesham iti svikurmaschete yesham idam shabdaha sarvanama shabdaha makarantaha pullingaha shashti bahuvachanam pitaraha rikaranta pullingaha pitru shabdaha pitapitaro pitaraha bahuvachanam patanti if you see again very very simple patanti patulr gatav is the dhatu, again more in the meaning of movement, so falling down. Patanti bhagane vartate latlakaraha prathama purusha bahuvachanam patati patataha patanti saralam vartate. So very very simple dhatus and simple forms have been used atra yataha. The grammar need not be very very complicated here because the concepts are very very important. Evam tatra bhasha tavat ativa sarala vartate param artha gadhata iri vayam pashyamaschete tat mahat vartate. So at any point of time in our life we can never say that we have understood Bhagavad Gita fully, because new readings, new concepts, we always understand it at any point of time. Depending on situation also, we get new meanings. Evam tatra universal, which is why the grantha is universal. It has stood the test of time and it is beyond any time limitations and it is applicable always in our life. Evam bhavati sankarah kulagnanam kulasya cha narakaya bhavati anantaram yesham pitarah ye santi. The ancestors of these people who have had Varna Sankaryam, te sarve lupta pindodaka kriyaha sarvada tatra pitrlokat adho patanti tesham mukti naiva labhyate. Anantaram yadi sandhi bhage pashyamaschet sankaro narakayaiva, sankaro narakaha sankaraha plus narakaya visarga utva bhavati ukarasya gunadeshaha bhavati evam sankaro narakaya bhavati. Narakaya eva a plus a i narakaya eva kulagnanam anuswarasandhi pitaraha hi, again similar pitaraha in visarga place u comes, u stane o bhavati gunadeshaha evam pitaro hi becomes, hi plus yesham becomes hyesham, i urulr asavarnaswara ya varala kramashaha adeshaha bhavanti yand sandhihi evam yesham luptapindodaka kriyaha anuswarasandhihi. Tatra yadi samasa bhage pashyamaschet pinda lupta pindodaka kriyaha, pinda and udaka, there are two things which has to be given if you have seen in the shraddha karyas. Tatra pincha udakam cha tayoho kriya pinda udaka kriya tatra dvandva samasaha पिण्डोदकक्रियाः द्वन्द्वसमासः लुप्ते पिण्डोदकक्रिये येषां ते लुप्तपिण्डोदकक्रियाः येषां तत्र क्रियाः लुप्ताः भवन्ति ते लुप्तपिण्डोदकक्रियाः एवम् अन्यपदस्य अर्थः द पीपल् हू आर् बीन् लेफ्ट् औट् बै द पिण्डोदकक्रियास् दे एवं बहुव्रीहिसमासः अन्यपदार्थः प्रधानरीत्या भवति तदर्थं बहुव्रीहिसमासस्य उपयोगः अस्ति यदि वयं पश्यामश्चेत् संकरः अगेन् संकरः तत्र सम् उपसर्गपूर्वक डुक्रिञ्च् तत्र अप् प्रत्ययरीत्या संकरः भवति कुल प्लस् इन् प्लस् क्विप् यदि वयं पश्यामश्चेत् वि सा दट् ये कुलं हन्ति इति कुलघ्नः कुलं हन्ति इति सः ते कुलघ्नाः अनन्तरं लुप्तः लुप् प्लस् क्तप्रत्ययस्य भूतकृदन्त लुप् धातोः क्तप्रत्यादेशः भूतकृदन्तः लुप्त लुप्तः इति भवति वेरि सिमिलर् टु अवर् कृतः कृता कृतं गतः गता गतम् एवं तत्र व्याकरणभागं वर्तते इदानीं तावत् तत्र अग्रिमश्लोकं पश्यामः वि विल् ट्रै टु रीड् दिस् श्लोक अगेन् अण्ड् सी इफ् यु हव् अण्डर्स्टुड् इट् प्रापर्ली संकरो नरकायैव कुलघ्नानां कुलस्य च पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः The next one. Hope you are able to see the. We'll try to close the whiteboard so that only the presentation which we are using comes there. प्राब्लम् इन् ओके वि हव् गाट् इट् तत्र सम्यक् वर्तते श्लोक नम्बर् 43 लेट् अस् टेक् दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः श्लोकं द्विवारम् अनुपठन्तु तत्र पदच्छेदः कर्तृकर्मक्रिया एतै वि आर् इन् द 43rd श्लोक दोषैः एतैः कुलघ्नानां वर्णसङ्करकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माः च शाश्वताः सो कर्तृकर्मक्रियां पश्यामः जातिधर्माः उत्साद्यन्ते जातिधर्माः कुलधर्माः च उत्साद्यन्ते तत्र उभयोरपि उत्सादनं भवति एवं वाट् वि आर् सीङ्ग् द लाजिक् हि कण्टिन्यूस् अर्जुनः तत्र अग्रे गच्छति वाट् वि सा द सेम् थिङ्ग् आन् द सेम् लैन्स् हि हस् बीन् स्टिल् डिस्कसिङ्ग् कुलघ्नानां वर्णसङ्करकारकैः एतैः दोषैः by all these again kulaghnaha ye kulam hanti tesham vamsha nashakaha ye santi tesham by all these varna sankara karakaihi etaihi doshaihi. What happens by this mixture of all these varna sankara karakaihi doshaihi, by this mistake of doing these mixture of caste, what will happen is shashvataha tatra jati dharmaha ye santi shashvataha varnashrama dharmaha ye santi anantaram kula dharmaha the vamsha dharmaha ye santi utsadyante. The first part of it is quite easy. Kulaghnanam varna sankara karakaihi, varna sankara karakaihi taihi doshaihi, doshaihi mistakes, etaihi doshaihi these mistakes, varna sankara karakaihi etaihi doshaihi by these mistakes which are caused by the mixture of varnas, varnashramas, whatever is there, and which is caused by the kulaghnaha, by the people who are killing the clans, by them which is being caused, by these what will happen? Two things again will happen, he tells. He spoke about the generations, the future generations and past generations. Now he is speaking about the situation, what will happen to dharma as such. Again in that, he splits the dharma into two. Prathamam tavate jati dharmaha. Jati dharmaha ityukte atra we should take it as vedadharita varnashrama dharmaha. Because he has used the word shashvataha. Shashvataha will only mean sanatanaha. And what is sanatana? Whatever has been told in the Vedas is only sanatana, which is only shashvata, which will remain immemorial. Therefore, shashvataha jati dharmaha. Here jati dharma does not mean the vritti dharma which the people are following. It will not be something like the vritti dharma which people are following now. It will be the vedaritya, vaidikaritya, uktaha, ye sanatana, varnashtama dharmaha, brahmana kshatriya vaishya shudra anantaram brahmacharya grihastha vanaprastha sanyasi evam ye varnashrama dharmaha sarvam santi tatra yete sarve shashvataha sanatanaha vaidika adharita dharmaha. That is the first set. Second set tavat kula dharmaha ye dharmaha vamsharitya agataha, the traditional practices which come through the lineage of the people, through the generations, through the family practices which are there. Kshetra dharmaha, tatra vamsha dharmaha, all these which are there. There are a lot of practices which are followed in certain location by certain sect of people. And these are the kula dharmas which are also very very important to build the overall culture of the society. Evam kula dharmaha ye santi, jati dharmaha ye santi, te sat utsadyante, utsadyante tukte, te sarve vinasham prapnuvanti. Again, we have seen this dhatu before. It is a shadalra dhatu only. Tatra visharana gati avasadanam. Avasadanadi artheshu api etasya upyogam kartum shakyate. Utsadyante would mean vinasham prapnuvanti. Te sarve vinashyante, they get destroyed. So, continuing his reasoning, very, very on the same lines, he is again giving more and more of reasoning. Yete by these varnasankara karakaihi doshaihi, by this mistake of having been the reason for mixture of varnashtamas, by the mixture of the varna people, because there are no people there, people resort to vivahadi samskara of intervarnas, and then they start doing the wrong krityas. Whatever has to be done, they start doing it wrongly. Because of all these, two things will be destroyed, two dharmas will be destroyed. Ekam prathamam tavat shashvata jati dharmaha vaidika sanatana vaidika dharmaha yadasti vamsha yat jati dharmaha asti varnashrama dharmaha asti tat tavat nasham prapnoti anantaram tavat kula dharmaha, all those which have been followed by the clan through the ages, by which has been transferred by fathers to sons, by mothers to daughters and to granddaughters, which is being passed, those will be missed out. Which is what we are actually seeing today, which is the reason for lot of confusion and chaos in the society. Kulagnanam, tatra pada parichayam pashyamaha, vamshanashakanam, akaranta pulinga, shatti bahuvachanam, karakaihi, varna sankara karakaihi, varna sankara vanda sankarya, karanaihi, karana kritibihi, वर्ण सांकर्य हेतुभिः द कॉज हेतु कारणम कारकम यदस्ति दट इज विच इज द रीजन फॉर वर्ण सांकर्यम तैः एतैः दोषैः पापैः अकारांत पुल्लिंग तृतीय बहुवचनम एभिः दोषैः ऑल कनेक्टेड वर्ड्स अगेन एतैः एतत् शब्दः दकारांत पुल्लिंग सर्वनाम शब्दः तृतीय बहुवचनम एतैः दोषैः अगेन अकारांत पुल्लिंग तृतीय बहुवचनम द अदर थ्री वर्ड्स शाश्वताः जातिधर्माः कुलधर्माः ऑल आर अगेन कनेक्टेड प्रथम बहुवचनम ऑल दीस एते सर्वे उत्साद्यन्ते उत्साद्यन्ते वीसा शदल धातु फाइनली इट कम्स एज सद सद विल बी द फाइनल रिजल्टेंट फॉर्म बेसिक धातु इज शदल विशरण गति अवसादनेशु इज द बेसिक धातु फाइनली गेट्स 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 फॉर्म एज सद एंड देन वी हैव अ निच हियर निच प्रयोग भवति एवं तत्र लट् लकारः भवति उत्साद्यन्ते उत्साद्यन्ते साध्यते साध्येते साध्यन्ते साध्यसे साध्येथे साध्यद्वे साध्ये साध्यावहे साध्यामहे लट्लकारस्य प्रयोगः आत्मनेपदी प्रयोगः तत्र निच् प्रयोगपि भवति एवं रीत्या अस्ति यदि वयम् अर्थम् अर्थः तावत् तत्र अतीव सरलो वर्तते यदि वयम् अर्थं पश्यामश्चेत् कुलघ्नानां वर्णसंकरकारैः एतैः दोषैः शाश्वताः जातिधर्माः शाश्वताः कुलधर्माश्च उत्साद्यन्ते नाशं प्राप्नुवन्ति सन्धिभागं पश्यामः दोषैः एतैः दोषैः प्लस् एतैः दोषैरेतैः तत्र विसर्गस्थाने तत्र रेफस्य आदेशः भवति सकारः रेफादेशः अनन्तरं भवति एवं दोषैः एतैः दोषैरेतैः कुलघ्नानां प्लस् वर्णसंकरकारकैः अनुस्वारसन्धि कुलधर्माः प्लस् च धर्माः विसर्गस्थाने सकारो भवति धर्मास् भवति अनन्तरं स्तोश्चुनाश्चुः श्चुत्वसन्धिः भवति कुलधर्माश्च कुलघ्नाः लघ्नः कुलं हन्ति इति कुलघ्नः वी हैव जस्ट सीन इट इन द प्रीवियस श्लोक कुलं हन्ति इति कुलघ्नः वर्णसंकरकारकैः वर्णानां संकरः वर्णसंकरः षष्ठीतत्पुरुषः वर्णसंकरस्य कारकाः ये वर्णसंकरकारकाः तैः वर्णसंकरकारकैः द मिक्सचर ऑफ कास्ट वर्णसंकरकारका द काजेस ऑफ मिक्सचर ऑफ कास्ट वर्णसंकरकारकाः एवं तत्र उभयत्रापि षष्ठीतत्पुरुषसमासे एव भवति अनन्तरं वर्णानां संकरः वी हैव सीन दैट जातिधर्माः जातेः धर्माः वर्णाश्रमस्य धर्माः वर्णस्य धर्माः वर्णधर्माः जातेः धर्माः जातिधर्माः एवं षष्ठीतत्पुरुष अगेन हियर जातिधर्म शुड नॉट बी मिसअंडरस्टूड इन टू एनी ऑफ द करंट कंटेम्परी यूजेज ऑफ दिस वर्ड जाति इट इज द सनातन जातिधर्माः शाश्वताः इति उक्तमस्ति तत् केवलं वर्णाश्रमधर्म ओनली शुड बी टेकन हियर एंड नॉट एज एनी अदर कनोटेशन शुड नॉट बी टेकन कुलधर्मः कुलस्य धर्मः वी हैव सीन दैट षष्ठी तत्पुरुषः कारकः कृ धातुः नूल अक अक प्रत्ययः भवति नूल प्रत्ययः अके अक रूपेण परिणमते कारकः जाति अगेन जन जनि प्रादुर्भावे वी हैव सीन जन प्लस तिन प्रत्ययः शाश्वतः अगेन शश्वत प्लस अणु प्रत्ययः सर्वदा भवति इति शाश्वतः इट इज ऑलवेज देयर व्हाट इज देयर शश्वत शश्वत परमानेंटली विच स्टेस यत् भवति तदेव शाश्वतः दीज आर द वेरियस फॉर्म्स द विशेष टिप्पणीज वी हैव ट्राइड डिस्कसिंग द विशेष टिप्पणीज विद इन द श्लोक इटसेल्फ यदस्ति इदानीं जनरली द सेम कॉन्सेप्ट्स हैव बीन रिपीटेड सो वी कैन गो अ लिटिल बिट मोर फास्टर दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः Let us take the next श्लोक also. उत्सन्न कुलधर्माणां द्विवारं अनुवदन्तु मनुष्याणां जनार्दन नरके नियतं वासः भवतीत्यनुशुश्रुमा ஸ்லோக நம்பர் 44 ஆஃப் த 47 ஸ்லோகாஸ் அர்ஜுன வியோக அர்ஜுனஸ்ய விஷாத ஸ்லோகாஹ காரணானி ஏயே சந்தி தத்ர யுத்தம் நகர்த்தும் காரணானி சஹ வததி சர்வம் தாவத் தார்மிக காரணான்யேவ தத்ர அதீவ கிருபையா ஆவிஷ்ட ஹிருதயஹ இதானீம் சஹ நது பயேன He is filled with a deep empathy and compassion and not with fear of fight. Evam tatra asya manoriti vartate. Let us see the padachheda. Utsanna kuladharmanam manushyanam janardana narake aniyatam vasaha bhavati iti anushushruma. கர்த்தகர்ம கிரியாம் பசியந்து வாசஹ பவதி ஓகே அனுசுஷ்ரும எக்ஸாக்ட்லி அனுசுஷ்ரும இதி தத்ர வயம் அனுசுஷ்ரும தட் இஸ் மோர் த ஆப்ட் வாசஹ பவதி இஸ் அன் இன்டரிம் வாக்கியம் இட் இஸ் Vasahabhati is within the sentence itself. Iti vayam anushushruma. Like this we have heard. Evam sahavadati. Bhavato. So, now whatever he kind of knew very very definitely, saha tatra samapanam krutavan, now Anushushruma, we have also heard all these bad things will happen to these people. Evam saha vadati. Shloka stavate sarala vartate. Very very simple shloka again. If we see, He Janardana, Utsanna kula dharmanam, Ye ye janaha, Tatra vamsha dharmaha, Vamsha dharmanam, Tra nashtaha bhavanti, Tatra nashta vamsha acharana janaha ye ye santi, Tesham manushyanam krite, For those kind of people who have left their family traditions and all the dharmas, for them, aniyatam vasaha, kutra narake, narake, natu niyatam vasaha, it is not of a defined period of time, tatra varshadvayam tavat naraka vasaha bhavishyati, iti tatra adeshaha nasti, aniyatam vasaha, bhavan narake bhavatu, yada tatra vayam chintayamaha, tada tatra naraka vasat muktihi bhavati iti bhavati. This is what happens, aniyatam narake, அனியதம் வாசஹ பவதி இதி வயம் அனுசுஷ்ரும ஏவம் வி ஹவ் ஹர்ட் வி ஹவ் ஹர்ட் சம்வேர் லாட் ஆஃப் பீப்பிள் கீப் டெல் வி ஹவ் ஹர்ட் ஹாவன்ட் வி ஹர்ட் ஆஃப் இட் ஏவம் அஸ்மாபிஹி பூர்வம் ஸ்ருதம் அஸ்தி இதி சஹ வததி இதி வயம் இதி அனுசுஷ்ரும ஏவம் வயம் ஸ்ருதவந்தஹ வி ஆர் ஹியரிங் இட் வி ஹர்ட் லைக் திஸ் இன் த பாஸ்ட் சோ தேர்ஃபோர் தட் இஸ் ஆல்சோ அ பேட் திங் வாட் வி ஆர் டூயிங் தட் இஸ் வாட் ஹீ டெல்ஸ் தத்ர வாக்கியம் தாவத் வயம் அனுசுஷ்ரும வி ஹாவ் ஹர்ட் சம் டைம் வாட் ஹாவ் வி ஹர்ட் உத்சன்ன குல தர்மானாம் மனுஷ்யானாம் ஃபார் தோஸ் பீப்புள் ஹூ ஹாவ் லெஃப்ட் தேர் ட்ரெடிஷனல் அண்ட் அதர் வைதிக தர்மாஸ் அண்ட் சாஸ்வத தர்மாஹ தேஷாம் கிம் பவதி தேஷாம் நரகே இந்த நரகா வேர்ல்ட் வேர் தெர் வில் பி லாட் ஆஃப் பனிஷ்மெண்ட்ஸ் ஃபார் ஆல் த டீட்ஸ் டன் தாதிருஷ நரகே சர்வதா அனிதம் வாசஹ பவதி தே வில் ஹாவ் அன் இன்டெஃபினட் நியதம் டெஃபினட் அனியதம் ஃபார் அ வெரி 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 லாங் லாங் டைம் விச் இஸ் நாட் டிஃபைன்ட் அனியதம் வாசஹ பவதி யதா தத்ர நரகே வாசஹ பவதி ததா தத்ர சிக்ஷா அபி பவதி லாட் ஆஃப் டிஃபரண்ட் டைப்ஸ் ஆஃப் தத்ர கிருமி போஜனம் தைலாரோபணம் உஷ்ண தைலாரோபணம் இத்தியாதி ஆல் திங்ஸ் வி ஹவ் சீன் இன் த புராணாஸ் வி ஹவ் ரெட் ஹவு த Naraka description and all and what happens in the Naraka is also there. Evam, this is what he tries to tell. Hey Janardana, Utsanna kuladharmanam manushyanam, Tatra Utsanna, people have left, Tyagi krita, Tatra Tyakta kuladharmam, Tyakta kuladharmanam, Tyakta vamsha acharananam, manushyanam, jananam, naranam krite, kimbhavati, what will be the result for those people who have left all the practices? Tatra நரக்கே அனியதம் வாசஹ பவதி வெரி வெரி ஃபார் அ லாங் டைம் தாதிருஷ வாசஹ பவதி ஹாவ் யூ சீன் இஃப் சம்படி ஆஸ்க் நோ நோ ஐ ஹவ் நாட் சீன் பட் ஐ ஹவ் ஹர்ட் மயா तत्र श्रुतमस्ति पूर्वम् एवं तत्र अस्मा वयम् अनुशुश्रुम पूर्वं तावत् तत्र ज्येष्ठाः श्रेष्ठाः आचार्याः एवं वदन्ति इति सः वदति. जनार्दन, हे जनार्दन, अकारान्तःपुल्लिङ्ग सम्बोधन प्रथमैकवचनम् उत्सन्नकुलानां मनुष्याणां कनेक्टेड् वर्ड् षष्टि बहुवचनम् अनियतम् अनियतम् प्रथमैकवचनम् नरके कुत्र नरके इन् नरक सप्तमी एकवचनम् वासः स्थितिः ड्विङ् तत्र स्टे इन् दट् प्लेस् वासः तत्र प्रथमा एकवचनम् भवति भूधातुः भूसत्तायां प्रथमपुरुष एकवचनम् अनुशुश्रुम इफिसि अनु उपसर्गपूर्वक श्रुश्रवणे अगेन् श्रुश्रवणे इस् द धातु वाट् इस् दट् फ्रम् वेर् श्रुति अण्ड् आल् दीस् वर्ड्स् हव् कम् श्रुश्रवणे दिस् इस् द लिट् लकार फार्म् शुश्राव श्राव शुश्राव शुश्राव शुश्रवतुः शुश्रुवुः शुश्रोथ शुश्रवतुः शुश्रुव शुश्राव शुश्रव शुश्रुव शुश्रुम अनुशुश्रुम दिस् इस् वाट् इस् देर् तत्र एकनिमिषं द्रष्टुं शक्यते अनियतम् हौ विल् इट् बि एन् अव्यय बिकास् अनियतम् यदि वयं पश्यामश्चेत् इफ् यु सी इन् द व्याकरणभाग इट् सेल्फ् ऐ थिङ्क् वि हव् ट्रैड् पुटिङ्ग् दट् देर् अनियतम् इस् न नियतम् अनियतम् अगेन् इफ् यु सी द नियतम् इट् विल् बि द कृतप्रत्यय ओन्लि आक्चुलि नी उपसर्गपूर्वक यम् प्लस् कृतप्रत्यय एवं तत्र अनियतम् इति भवति एकवारं पुनः तत्र ऐ विल् आल्वेस् चेक् अण्ड् गेट् बेक् बट् एस् फार् एस् करेण्ट् अण्डर्स्टाण्डिङ्ग् इट् मे बि I'll just check that and I will let you know on that also. Bhavatu. Anantaram. Utsanna kula dharmanam, manushyanam, janardana, both are anuswara sandhi. Narake aniyatam will be pururupa sandhi. Aniyatam vasaha if we see anuswara sandhi. We have seen these sandhis very very predominantly. Vaso bhavati tyanushushruma. Vaso bhavati visarga ukaradeshaha. Bhavati plus iti bhavati iti. Savanadirga. इति प्लस् अनुशुश्रुम तत्र यण् सन्धिः भवति इति प्लस् अनुशुश्रुम यण् सन्धि अनन्तरम् उत्सन्नकुलधर्माणां कुलस्य धर्मः कुलधर्मः उत्सन्नः कुलधर्मः येषां ते उत्सन्नकुलधर्माः तेषां कृते बहुव्रीहि समासः कृदन्तः अगेन् उत्सन्नः सद् धातुः उत् उपसर्गपूर्वक कृतप्रत्ययः नियतम् एस् फार् एस् वि हव् सीन् नौ इट् इस् कृदन्त वासः अगेन् वस् धातुः घञ् प्रत्ययः वस् भावे तत्र घञ् प्रत्यादेशः वासः भवति वासः स्टे अगेन् तत्र कृदन्तप्रयोगः मनुष्यः मनु प्लस् शुक् प्रत्ययः प्लस् शुक् मनु प्लस् शुक् प्लस् यत् तत्र मनोः गोत्रापत्यं वा मनोः अपत्यं यत्किमपि स्वीकर्तुं शक्यते मनोः अपत्यम् आल् दोस् पीपल् हू बिलाङ्ग् टु द क्लान् आफ् मनु वंशीयाः ये सन्ति ते सर्वे मानवाः मनुष्याः इति स्वीकर्तुं शक्यते तत्र समयाभावः एवं तत्र वि हव् ट्रैड् टु कवर् द श्लोक 43 टिल् 44 एकवारं तत्र श्लोकं तावत् वदामः अनन्तरं समर्पणं कुर्मः संकरो नरकायैव कुलघ्नानां कुलस्त्रियः पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः दोषैरैतेः कुलघ्नानां वर्णसङ्करकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन नरके नियतं वासः भवतीत्यनुशुश्रुम यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम सर्वेभ्यः धन्यवादाः थेङ्क्स् फार् जोयिङ्ग् क्लासेस् आल् द डौट्स् विच् हव् बीन् रेस्ड् वी विल् ट्रै टु क्लारिफै बै द कमिङ्ग् क्लास् एण्ड् आगामिकक्षा तावत् 24th ट्यूस्डे मॉर्निंग 6 o'clock. सिमिलरली वी विल ऑल ट्राई टू कैच अप. तत्र गीतायाः संभाषणं चर्चा अध्ययनं सहैव कुर्मः. वी विल ऑल ट्राई टू डू सहपठनम् ऑफ द गीता ग्रंथ. राम राम राम. धन्यवादः.